ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। परीक्षिदुवाच, रजस्तमस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः, नारायणे भगवते कथमासीत् दृढा मतिः, देवानां शुद्धसत्त्वानां ऋषीणां चामलात्मनां भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते, रजोभिः समसङ्ख्याताः पार्थिवैरिहजन्तवः, तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः, प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम, मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिद्ध्यति, मुक्तानामपि सिद्धानां नारायणपरायणः, सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने, वृत्रस्तु स कथं पापः सर्वलोकोपतापनः, इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे, अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो, यः पौरुषेण समरे सहस्राक्षमतोषयत्। सूत उवाच, परीक्षितोऽथ सम्प्रश्नम् भगवान् बादरायणिः, निशम्य शब्दधानस्य प्रतिनन्द्य वचोऽब्रवीत्। श्रीशुक उवाच, शृणुस्वावहितो राजन्नितिहासमिमम् यथा श्रुतम् द्वैपायनमुखान्नारदाद्देवलादपि, आसीत् राजा सार्वभौमः शूरसैनेषु वै नृप, चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही, तस्य भार्या सहस्राणाम् सहस्राणि दशाभवन्, सान्तानिकश्चापि नृपो न लेभेतासु सन्ततिम्, रूपौदार्यवयो जन्म विद्यैश्वर्यश्रियादिभिः, सम्पन्नस्य गुणैः सर्वैश्चिन्तावन्ध्यापतेरभूत्, न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः, सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः, तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः, लोकाननुचरन् नेतानुपागच्छत् यदृच्छया, तम् पूजयित्वा विविधिवत् प्रत्युत्थानार्हणादिभिः, कृतातिथ्यमुपासीदत् सुखासीनम् समाहितः, महर्षिस्तमुपासीनम् प्रश्रयावनतम् क्षितौ, प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्। अङ्गिरा उवाच, अपि तेनामयम् स्वस्ति प्रकृतीनाम् तथात्मनः, यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः, आत्मानम् प्रकृतिश्रद्धा निधाय श्रेयाप्नुयात्, राज्ञा तथा प्रकृतयो नरदेवाहिताधयः, अपि दारा प्रजामात्या भृत्या श्रेण्योऽथ मन्त्रिणः, पौरा जानपदा भूपा आत्मजा वशवर्तिनः, यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे, लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः, आत्मनः प्रीयते नात्मा परतः स्वत एव वा, लक्षये लब्धकामम् त्वाम् चिन्तया सबलम् मुखम्। एवम् विकल्पितो राजन् विदुषा मुनिनापि सह, प्रश्रयावनतोऽभ्याः प्रजाकामस्ततो मुनिम्। चित्रकेतुरुवाच, भगवन् किम् न विदितम् तपोज्ञानसमाधिभिः, योगिनाम् ध्वस्तपापानाम् बहिरन्तः शरीरिषु, तथापि पृच्छतो ब्रूयाम् ब्रह्मन्नात्मनि चिन्तितम्, भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया, लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः, न नन्दयन्त्यप्रजम् माम् क्षुत्रिट्काममिवापरे, ततः पाहि महाभाग पूर्वैः सह गतम् तमः, यथा तरे मदुस्तारम् प्रदया तद्विधेहिनः। श्रीशुक उवाच, इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः, शपयित्वा चरुम् त्वाष्ट्रम् त्वष्टारमयजद् विभुः, ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणाम् च भारत, नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्विजः, अथाह नृपतिम् राजन् भवितैकस्तवात्मजः, हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ, सापि तत्प्राशनादेव चित्रकेतोरधारयत्, गर्भम् कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्, तस्या अनुदिनम् गर्भः शुक्लपक्ष इवोडुपः, बभृधे शूरसेनेश तेजसा शनकैर्नृप, असकालौपावृत्ते कुमारः समजायत, जनयन् शूरसेनानाम् शृण्वताम् परमामुदम्, हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः, वाचयित्वा शिशो विप्रैः कारयामास जातकम्, तेभ्यो हिरण्यम् रजतम् वासांस्याभरणानि च, ग्रामान् हयान् गजान् प्रादात् धेनूनामर्बुदानि षट्, ववर्षकाममन्येषाम् पर्जन्यैव देहिनाम्, धन्यम् यशस्यमायुष्यम् कुमारस्य महामनाः, कृच्छ्रलब्धेऽथ राजर्षे स्तनयेऽनुदिनम् पितुः, यथा निःश्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत, मातुस्त्वतितराम् पुत्रे स्नेहो मोहसमुद्भवः, कृतद्युते सपत्नीनाम् प्रजाकामज्वरोऽभवत्। चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति, न तथान्येषु सञ्जज्ञे बालम् लालयतोऽन्वहम्, तापर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया आनपत्येन दुःखेन राज्ञो नादरणेन च दिगप्रजां स्त्रियं पापां पत्युश्च गृहसम्मतां सुप्रजापि सपत्नीभिर्दासीमिव तिरस्कृताम् दासीनां कोनु सन्तापः स्वामिनः परिचर्यया अभीक्षणं लब्धमानानां दास्या दासीव दुर्भगाः एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा राज्ञो सम्मतवृत्तीनां विद्वेषो बलवानभूत् विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः गरं ददौ कुमाराय दुर्मर्षा नृपतिं प्रति कृतद्युतिरजानन्ति सपत्नीनामघं महत् सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे शयानं सुचिरं बालमुपधार्य मनीषिणी पुत्रमानय मे भद्रे इति धात्रीमचोदयत् सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् प्राणेन्द्रियात्मभिस्त्यक्तम् हतास्मीत्यपतद्भुवि तस्यास्तदा कर्ण्यभृशातुरं स्वरं घ्रन्त्याः कराभ्यामुर उच्चकैरपि प्रविश्य राज्ञी त्वरयात्मजान्त्रिकं ददर्श बालं सहसा मृतं सुतम् पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ततो नृपान्तः पुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् आगत्य तुल्यव्यसना सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागतः श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि स्नेहानुबन्धै धितया शुचा भृशं विमूर्छितो नु प्रकृतिर्द्विजैर्वृतः पपात बालस्य सपादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् पतिं निरीक्ष्योरुषु चार्पितं तदा मृतं च बालं सुतमेक सन्ततिम् जनस्य राज्ञी प्रकृतेश्च हृतृजम् सती दधाना विललापचित्रधा स्तनद्वयं कुङ्कुमगन्धमण्डितं निषिञ्चति साञ्जन बाष्पबिन्दुभिः विकीर्य केशान् विगलत्स्रजः सुतं सुसोच चित्रं कुररीव सुस्वरम् अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्य प्रतिरूपमीहसे परे नु जीवत्य परस्य या मृतिर्विपर्ययश्चेत्त्वमसिध्रुवः परः न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते त्वमिमं विवृच्छसि त्वं तातनार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् अञ्जस्तरेम भवता प्रजदुस्तरं यद्ध्वान्तं न याह्य करुणेन यमेन दूरम् उत्तिष्ठता तत इमे शिशवो वयस्यास्त्वाम् आह्वयन्ति नृपनन्दन संविहर्तुम् सुप्तश्चिरं यशनया च भवान् परीतो भुङ्क्ष्वस्तनं पिबशुचो हरणस्वकानाम् नाहं तनूजदृशे हतमङ्गलाते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् किं वा गतोऽस्य पुनरन्वयमन्यलोकम् नीतो घृणेन न शृणोमि कलागिरस्ते श्रीशुक उवाच विलपन्त्यामृतं पुत्रमिति चित्रविलापनैः चित्रकेतुर्भृशं तप्तो मुक्तकण्ठोरुरोदः तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः रुदुः स्म नरा नार्यः सर्वमासीद चेतनम् एवं कस्मलमापन्नं नष्टसंज्ञमनायकम् ज्ञात्वाङ्गिरा नाम मुनिराजगाम स नारदः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।